स्मरामि हरति संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहं जगतिं तुरीयम् यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्मनिष्कलमहं न च भूतसङ्घः प्रातर्भजामि मनसां वचसामगम्यं वाजो विभान्ति निखिलायदनुग्रहेण यन्नेति नेति वचनायनिगमावोचुः तं देवदेवमचमच्युतं माहुरक्रियम् प्रातर्नमामि तमसपरमार्कवर्णम् पूर्णं सनातनपदं पुरुषोत्तमाख्यम् यस्मिन्निदं जगदशेषमशेषमूर्तौ रक्ष्वाम्भुजङ्गम इव प्रतिभासितं वै श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् प्रातःकाले पठेत् यस्तु स गच्छेत् परमं पदम्।